श्री स्वामी समर्थ। श्री स्वामी समर्थांचा हा ऐक्य मंत्र अतिशय प्रभावशाली असून याच्या नित्य पठणाने घरातील वादविवाद कमी होतात, तसेच शत्रू सुद्धा मित्रत्वाने राहतो।
यम वैदिका मंत्र दृश्य पुराणाः इन्द्रं यमं मातरिश्वान बाहुः वेदान्तिनो निर्वचनीयमेकम् यम ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्धजैनाः सच्छ्री अकालेति च सिक्खसन्तः शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्धजैनाः सच्छ्री अकालेति च सिक्खसन्तः शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्धजैनाः सच्छ्री अकालेति च सिक्खसन्तः शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्धजैनाः सच्छ्री अकालेति च सिक्खसन्तः शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति सच्छ्री अकालेति च सिक्ख संतः शास्तेति केचित् कदिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृश पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकं यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्ध जैनाः सच्छ्री अकालेति च सिक्ख संतः शास्तेति केचित् कदिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृश पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्ध जैनाः सच्छ्री अकालेति च सिक्ख संतः शास्तेति केचित् कदिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृश पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्ध जैनाः सच्छ्री अकालेति च सिक्ख संतः शास्तेति केचित् कदिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृश पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्ध जैनाः सच्छ्री अकालेति च सिक्ख संतः शास्तेति केचित् कदिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः यं वैदिका मन्त्रदृश पुराणाः इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति। शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथार्हं निति बौद्धजैनाः सच्छ्री अकालेति च सिक्खसन्तः शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्याः यं प्रार्थयन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः।